एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। राष्ट्रपतिना विद्यादेवी भण्डारिणा नेपाल भ्रमणे विद्यमानाय भारतीय सेनाध्यक्षाय मनोज मुकुन्द नरायणे विधेयाय गतदिने नेपाली सेनाया मानार्थम महारथिनः पदीय चिन्हम् प्रदत्तम् वर्तते। शीतल निवास वर्तिनी राष्ट्रपति भवने आयोजिते समारोहे राष्ट्रपतिः भण्डारी भारतीय सेनाध्यक्षाय नेपाली सेनाया महारथिनः पदीय चिन्हम् खड्गम् प्रमाणपत्रम् च प्रदादिते नेपाली सेनाया ज्ञापितम् वर्तते। नेपाल भारतयो अनुपमेन सांस्कृतिक धार्मिक ऐतिहासिक सम्बन्धेन सह मित्रवत सैनिक सम्बन्धस्य निरन्तरतायाः स्वरूपेण दशकै नेपाली सेनाया प्रधान सेनापतये भारतीय सेनायाः मानार्थम महारथिनः भारतीय सेना प्रमुखाय नेपाली सेनायाः मानार्थम महारथिनश्च पदस्य प्रदात्री परम्परास्थिति नेपाली सेनायाः प्रवक्ता सहायक रथी सन्तोष वल्लभ पौडेलः अज्ञापयत। समारोहे प्रधान सेनापतिः पूर्णचन्द्र थापा, रक्षा सचिव रेशमीराज पाण्डे, नेपाल सेक्रेटरी, भारतीय राजदूत विनय मोहन क्वात्रा च उपस्थिताः आसन्। ह्यैव भारतीय स्थल सेनाध्यक्षस्य जनरल पदीयस्य मनोज मुकुन्द नरावणे विधेयस्य प्रधान सेनापतेः पूर्णचन्द्र थापा विदस्य च मध्ये सैनिक मुख्यालये औपचारिक मेलवार्ता सम्पन्ना। गत सायं प्रधान सेनापति पूर्णचन्द्र थापा स्थल सेनाध्यक्षस्य नरावणे विधस्य सम्माने रात्रिभोजम् आयोजयत्। भारत सर्वकारेण नेपाली सेनायै संचलनशील चिकित्सालय द्वयस्य संचालनाय रुग्णवाहक यानैः सहितः आवश्यक स्वास्थ्य सामग्र्यः प्रदत्ताः सन्ति। सैनिक मुख्यालये ह्य आयोजिते कार्यक्रमे भारतीय स्थल सेनाध्यक्ष मनोज मुकुन्द नरावणे एताः स्वास्थ्य सामग्रीः प्रधान सेनापतये पूर्णचन्द्र थापा विधाय हस्तान्तरितवान्। नेपाल भारतयोः सुरक्षा सहयोगादान प्रदान सम्बद्धे त्रयोदशोपवेशे विहितायाः सहमतेः अनुसारेण नेपाली सेनायै एताः स्वास्थ्य सामग्र्यः प्राप्ताः इति नेपाली सेनया ज्ञापितमस्ति। ह्य काष्ठमण्डपो उपत्यकायां सहस्रेण शतत्रयेण अष्टानवत्या च शैत्येषु आराष्टम् सहस्रत्रय एकपञ्चाशति च जनेषु कोरोना संक्रमणम् पुष्टीभूतम् वर्तते। आराष्टम् विभिन्नासु प्रयोगशालासु त्रयोदश सहस्राणाम् अष्टाषष्टेश्च निदर्शनानाम् पीसीआर विधिना विहितेन परीक्षणेन सहस्रे नवाधिकशते च महिलासु सहस्रे द्वाचत्वारिंशदधिकाष्टशते च पुरूषेषु च संक्रमणम् पुष्टीभूतमस्ति। अद्यावधि नेपाले कोरोना संक्रमणेन लक्षं 85,000 चतुस्सप्तत्यधिक 900 च जनाः संक्रान्ताः सन्ति। सम्प्रति आराष्ट्रम् 37,000 चतुर्दशाधिक 500 च कोरोना संक्रान्ता जनाः वर्तन्ते। एतेषु काष्ठमण्डप उपत्यकायामेव 29,000 55,000 च सक्रिय संक्रान्त जनाः सन्ति। गतदिने 1,000 षदधिक चत्वारिंशत् च जनाः कोरोना संक्रमणात् मुक्ताः वर्तन्ते। कोरोना संक्रमणेन ह्य अतिरिक्ताः 18 जनाः मृताः। नेपाले अद्यावधि कोरोना संक्रमणेन मृतानां जनानां समग्र संख्या 1,052 च प्राप्तेति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितमस्ति। कोरोना संक्रान्तानां नागरिकाणां निःशुल्कम् उपचारस्य व्यवस्था विधातुं सर्वोच्च न्यायालयेन प्रदत्तस्य परमादेशस्य विषये सर्वकारेण पञ्जीकारिते निवेदने श्रवणम् न विधीयते। न्यायाधीशानाम् हरिकृष्ण कार्की, सपना प्रधान मल्ल, पुरूषोत्तम भण्डारी राम संयुक्त न्यायपीठेन ह्य स्वास्थ्य जनसंख्या मन्त्रालयस्य सचिवेन लक्ष्मण अर्यालद्वारा महान्यायाधिवक्तोः कार्यालयस्य माध्यमेन पञ्जीकारितस्य पुनरावलोकन निवेदनस्य निरस्तीकरणाय आदेश प्रदत्तम् अनु विषयेऽस्मिन् पुनः श्रवणम् न विधीयते। देशस्य कतिपय पालिकासु जनप्रतिनिधिषु कर्मचारीषु च कोरोना विषाणोः संक्रमणस्य दर्शनम् अनु सेवा प्रवाह प्रभावितो वर्तते। उदयपुर जनपदस्य त्रियुगा नगरपालिकायां कार्यरतानां कर्मचारिणां मध्ये युगपदेव अष्टसु जनेषु कोरोना संक्रमणस्य पुष्टिभवनम् अनु नगरपालिकया विधीयमान सेवा प्रवाह अस्यैव कार्तिकस्य 28 दिवसं यावत् पिदापितो स्थिति नगरपालिकाया निमित्त प्रमुख प्रशासकीयाधिकृत विश्वजित राई अज्ञापयत। सल्यान जनपदस्य कालीमाटी ग्रामपालिकायां कार्यरते कर्मचारिणी कोरोना विषाणोः संक्रमणस्य दर्शनमनु अत्यावश्यकी विहाय अन्याः सम्पूर्ण सेवाः अपर सूचनायाः अप्रकाशनम् यावत् पिदापिताः सन्तीति ग्रामपालिकायाः स्वास्थ्य शाखा प्रमुखः गोरख थापा अबोधयत्। एवमेव रूपन्देही जनपदस्य सैनामैना नगरपालिका कार्यालयस्य जनप्रतिनिधयः कर्मचारिणश्च कोरोना संक्रमणस्य सम्पर्कान्वेषणोपक्रमे सन्तीति हेतोः नगरपालिका कार्यालयेन प्रदीयमानाः सर्वाः सेवाः अस्यैव कार्तिकस्य चतुर्विंशं दिवसं यावत् पिदापिताः वर्तन्ते। कोरोना संक्रमणस्य संकटस्य न्यूनीकरणाय नुवाकोट जनपद प्रशासन कार्यालयेन वासरस्य अनुसारेण सेवा क्रियान्वीयते। कार्यालयेन ह्य सूचनां प्रकाश्य अद्यतः एकस्मिन् दिने केवलं चतुर्णां स्तराणां कार्याणि विधीयन्ते इति ज्ञापितमस्ति। एकस्मिन् दिने केवलं चतुर्णां स्थानीय स्तराणां कार्याणां सम्पादनत्वेन जनपदस्य द्वादश स्थानीय स्तरान् त्रिषु समूहेषु विभज्य कार्य सम्पादनं सहजं विहितमिति प्रमुख जनपदाधिकारी झंकनाद ढकालः असूचयत्। नेपाली कांग्रेस दलस्य केन्द्रीय कार्य समितेः अद्य निर्धारितः उपवेशः अस्यैव कार्तिकस्य चतुर्विंशे दिवसे वस्ता। कार्तिकस्य चतुर्विंशे दिवसे सोमवासरे दिवा एकवादने सानेपावर्तिनी केन्द्रीय कार्यालये उपवेक्षमाणे उपवेशे केन्द्रीय कार्य समितेः पदाधिकारिणः केन्द्रीय सदस्याः आमन्त्रित केन्द्रीय सदस्याश्च उपस्थित्यै अनुरुद्धाः सन्तीति दल कार्यालयस्य मुख्य सचिवः कृष्ण प्रसाद पोवडेलः अबोधयत्। प्रधानमन्त्रिणा केपी शर्मा ओलिना न्यूजीलैण्ड देशस्य प्रधानमन्त्रिपदे ज्याकिण्डा आडेन इत्यस्याः पुनः निर्वाचनम् आलक्ष्य वर्धापनं ज्ञापितमस्ति। प्रधानमन्त्रिणे आडेन इत्यस्यै ह्यो वर्धापन सन्देशं प्रेषयन् प्रधानमन्त्री ओली एतस्याः कार्यकालस्य सफलताम् अकामयत इति समाचारः।